सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं क्रियते. भगिनी श्लोकान् स्मारयतु.
ॐ येनाक्षरसमान्यायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्त तस्मै पाणिनये नमः. येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः समच्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकवररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. नमः सर्वेभ्यः. गुरुभ्यो नमः.
धन्यवादः भगिनी. धातुविज्ञानं तृतीयभागः इत्यस्य अनुवर्तनं क्रियते अद्य. पीठिकारूपेण किञ्चित् वदामि. धातौ स्थितानां स्वरवर्णानाम् आधारेण धातुः किं पदी, आत्मनेपदी वा परस्मैपदी वा उभयपदी वा इति ज्ञायते. अपि च धातौ स्थितस्य अवशिष्टस्वरवर्णस्य आधारेण सः धातुः सेट् वा अनिट् वा, तस्मिन् धातौ इडागमयोग्यत्वम् अस्ति वा न वा इत्यपि ज्ञातुं शक्नुमः. औपदेशिकधातौ स्थितः स्वरवर्णः कीदृशः, सः स्वरवर्णः अनुनासिकः चेत् इत् संज्ञकः भवति. उपदेशे जनुनासिक इत् इति सूत्रेण धातौ स्थितस्य अनुनासिक अचुवर्णस्य इत् संज्ञा भवति. तस्य लोपः इत्यनेन लोपः अपि भवति. सः अनुनासिक स्वरवर्णः इति संज्ञकः चेत् तस्य लोपः भवति. इतोपि सः अनुनासिकस्वरवर्णः कीदृशः, अनुनासिकस्वरवर्णस्य उपरि अधः वा चिह्नानि सन्ति वा, सः अनुनासिकस्वरवर्णः अनुदात्तः वा उदात्तः वा स्वरितः वा इति अपि द्रष्टव्यम्. तेन आधारेण धातुः किं पदि इति ज्ञायते. अनुबन्धवर्णानां लोपकार्यानन्तरम् इति संज्ञकवर्णानां लोपानन्तरं धातोः अवशिष्टस्वरः कीदृशः, सः अवशिष्टस्वरः अपि अनुदात्तः वा उदात्तः वा स्वरितः वा इति अपि द्रष्टव्यं. तेन आधारेण इड् व्यवस्था ज्ञायते. धातुः सेट् वा अनेट् वा इति ज्ञायते. एतदवगन्तुमेव स्वरसहितधातुपाठं प्रेषितवती. भवन्तः सर्वे दृष्टवन्तः इति मन्ये. एतस्य अवगमनार्थं स्वरसहितधातुपाठः द्रष्टव्यः. गते वर्गे वयं केषाञ्चन औपदेशिकधातूनां रूपाणि चर्चितवन्तः. रक्ष पाच्यधातुः, खन् भज् वच् आस् एतेषां धातूनां प्रसङ्गे काचित् चर्चा जाता गते वर्गे. पञ्चशाः धातवः परिशीलिताः गते वर्गे. अद्य अवगमनार्थम् इतोपि कांश्चन धातून् परिशीलयाम. सूत्राणि अपि एकवारम् अवलोकयाम. तेन अस्माकं ज्ञानं सुदृढं भवति. इदानीं करपत्रं पश्यन्तु. स्वरचिह्नानि इति लिखितमस्ति. एकः बिन्दुः अस्ति. तस्मात् परं धातुषु अचः अधस्तात् या रेखा विद्यते तस्मात् आरभ्य अद्य परिशीलयाम. तस्मात् आरभ्य पठनीयं. गोमती भगिनी कृपया आरम्भं करोतु.
धातुषु अचः अधस्ताद् या रेखा दृश्यते यथा अथः रेखा अस्ति इति, सा रेखा अचः अनुदात्तत्वं सूचयति. आसम् अथो रेखा अस्ति. उपवेशने इत्यस्मिन् धातौ सकारोत्तरवर्ती यः अकारः अस्ति सः अकारः अनुदात्तः इति अधस्थं चिह्नं सूचयति. धातुषु अचः उपरिष्टात् या रेखा दृश्यते यथा आ उपरि रेखा अस्ति इति, तया अचः स्वरितत्वं सूच्यते यथा टु पचश. पाके इत्यस्मिन् धातौ चकारोत्तरवर्ती यः अकारः अस्ति सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति. स्वरविज्ञानं धातोः अधः रेखा भवति उपरि रेखा भवति औपदेशिकधातुषु. अधः वा उपरि वा रेखा अस्ति चेत् तत् किं सूचयति? उदाहरणेन तत्र आसौ इति धातुः दत्तम्, आसौ औपदेशिकधातोः सकार आ योग सकारः अनन्तरम् अकारः अस्ति. अत्र ह्रस्व अकारः अनुनासिकः अस्ति, अपि च तत्र अधः एका रेखा अपि अस्ति. सकारोत्तरवर्ती यः ह्रस्व अकारः, सः अकारः अधः रेखा अस्ति, अतः तस्य नाम अस्ति अनुदात्तः इति. हस्तं चिह्नम् अनुदात्तत्वं सूच्यते. उपरि रेखा अस्ति चेत् तत् उदाहरणेन डुपचषम् इति धातुः अस्ति, तत्र डकारः अस्ति, उकारः अस्ति, उकारः अस्ति, अकारः अस्ति, चकारः अस्ति, अकारः अस्ति, अनन्तरं षकारः अस्ति. तत्र केवलं पचौ तत्र रेखा अस्ति, उपरि रेखा अस्ति. तत्र अनुनासिकचिह्नमपि भवति न भगिनि रूपाचाषाम्? अत्र अनुनासिकचिह्नं न दृष्टं. तो चकार उत्तरवर्ती अकारस्य अनुनासिकत्वमस्ति, उपरि रेखा तत् स्वरित अकारः इत्यपि सूचयति. एतानि चिह्नानि धातुः अनुदात्तः वा स्वरितः वा इति सूचयति. चिह्नं नास्ति चेत् किं भवति तद् अत्र न दत्तम्. फार् एक्साम्पल् डुपचष् तत्र डकारस्य उत्तरवर्ती उकारः अस्ति, तत्र किमपि चिह्नं नास्ति. पकारस्य उत्तरवर्ती अकारस्य अपि चिह्नं किमपि नास्ति. तदेव न भगिनि?
आम् साधु भगिनि. सारांशः कः इति प्रश्ने सति औपदेशिकधातुषु अचुवर्णस्य अधोभागे रेखा दृश्यते चेत् सः अचुवर्णः अनुदात्तः. तदवगन्तुमेव आसा इति धातोः उदाहरणं दत्तमस्ति. अयं धातुः अदादिगणे अस्ति, उपवेशने इत्यस्मिन् अर्थे अस्ति. धातोः औपदेशिकरूपं पश्यन्तु. अत्र सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः न केवलम् अनुनासिकः, सकारोत्तरवर्ती अकारस्य अधोभागे रेखा अस्ति. सा इति कथनेन तत्र दन्त्यसकारः अनुनासिक अकारः अपि अस्ति. तस्य वर्णनं कर्तुमिच्छामश्चेत् अनुनासिक अकारस्य अधोभागे रेखा अस्ति, इत्युक्ते तत्र उच्चारणभेदः अस्ति. सः अनुनासिक अकारः अनुदात्तः अपि. एवम् अस्ति चेत् सः धातुः किं पदी इति कथं ज्ञायते इति अवगन्तुम् अधोभागे सूत्राणि सन्ति. धातौ अनुनासिक अचुवर्णः अनुदात्तः अपि. इदानीं किं वक्तुं शक्यते अत्र? अयं धातुः अनुदात्तेत्, धातुः अनुदात्तेत् अस्ति. अनुदात्तेत् धातुः अस्ति चेत् तस्मात् परम् आत्मनेपदीसंज्ञकप्रत्ययाः विधीयन्ते. तदर्थमेव अस्य धातोः लट्लकाररूपम् आस्ते. तत्र स्थितस्य अनुनासिक अकारस्य इत् संज्ञा उपदेशजुनुनासिक इत् इत्यनेन भवति, तस्य लोपः इत्यनेन तस्य लोपः अपि भवति. दृश्यते, सूच्यते इति पदद्वयं कर्मणि लट् अस्ति. सूचयति इति कर्तरि लट् रूपम् अस्ति, चुरादिगणे अस्ति. सूच धातुः चुरादिगणीयधातुः. अपि च उपरिस्थम् इति पदमस्ति खलु अत्र, यथा शरीरस्थम्, अधस्थम्, उपरिस्थम् इत्यादिषु पदेषु उपपदसमासः अस्ति. अत्र द्वितीयविभक्त्यन्तं रूपं किमर्थमस्ति? सूचयति इति सकर्मकधातुः अस्ति इति कृत्वा उपरिस्थं चिह्नं सूचयति. अधस्तात्, उपरिष्ठात् इति वयं जानीमः एव. आसधातुः अनुदात्तेत् धातुः अस्ति. धातौ स्थितः अनुनासिक अचुवर्णः न केवलम् अनुनासिकः, न केवलम् ईतसंज्ञकः, स्वरितः अपि. तत् कथं ज्ञायते? तत्र अचुवर्णस्य उपरि रेखा दृश्यते. अत्र पश्यन्तु डुपचांश् इत्यत्र चकारोत्तरवर्ती अकारः अस्ति. च इति कथनेन न केवलं चकारः, तत्र अकारः अपि अस्ति. चकारोत्तरवर्ती अकारः अनुनासिकः, न केवलम् इत्संज्ञकः, स्वरितः अपि. किमर्थं चेत् तत्र उपरि रेखा दृश्यते. भगिनी, अत्र अनुबन्धवर्णाः के, तेषां निष्कासनं कथं भवति, विवृणोतु.
आसधातु, आसधातु अत्र अकारः अनुनासिक अनुनासिक अस्ति. धातुः औपदेश अवस्थायाम् अस्ति. उपदेशे अदनुनासिक इत इति सूत्रेण तस्य अकारस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. आस् इति प्रक्रियार्थं धातु सिद्धम्. अनन्तरं डुपचष् तत्र डुपचष् अत्र आदिर्नि पुडवः इति सूत्रेण डु इति डकार उकारसमूहस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण लोपः अपि भवति. चष् तत्र षकारः हलन्दम् अस्ति. हलन्द्यम् इति सूत्रेण तस्य इत्संज्ञा, तस्य लोपः इति सूत्रेण तस्यापि लोपः भवति. अनन्तरं पचौ इति अकारः अनुनासिकः अस्ति. इत्संज्ञा अस्ति तत्र उपदेशे अजनुनासिक इति. अनुनासिक इत्संज्ञकः स्वरः धातोः वर्णानां मध्ये कुत्रापि अस्ति तस्य लोपः भवति. उपदेशे अजनुनासिक इति सूत्रेण इत्संज्ञा भवति. तस्य लोपः सूत्रेण तदपि गच्छति. केवलं पच् एव तिष्ठति प्रक्रियार्थम्.
तदेव भगिनि, आस् धातोः प्रसङ्गे पश्यन्तु, औपदेशावस्थायां तस्य रूपम् आसं. लौकिकधातुः आस् धातुः अदादिगणे अस्ति, अपि च अनुदात्तेत् धातुः, अतः अनुदात्तनित आत्मनेपदम् इति सूत्रेण अस्य धातोः परम् आत्मनेपदसंज्ञकप्रत्ययानां विधानम् एव भवति. धातुः अनुदात्तेत्, अपि च अदादिगणे शप् विकरणप्रत्ययस्य लुक् भवति इति कृत्वा आस् योगः ते, आस्ते लट्लकाररूपं प्रथमपुरुषे एकवचनरूपम् आस्ते, आस् योगः ते तावदेव. अपि च डुपचांश् इत्यत्र किं भवति, भगिन्या उक्तमेव, अनुबन्धवर्णानां लोपकार्यानन्तरं लौकिकधातुः सिद्धः. पच् इति लौकिकधातुः. अयं धातुः इतोपि कीदृशः, धातुः स्वरितेत् इति वदामः. इत्युक्ते चकारोत्तरवर्तीयः अनुनासिक आकारः अस्ति, सः अनुनासिक आकारः स्वरितः अपि. उपरि रेखा अस्ति, अतः स्वरितः. धातौ स्वरितसंज्ञकः अनुनासिक अचुवर्णः इत्संज्ञकः, अतः स्वरितेत्. अतः स्वरितनितकर्त्रभिप्राये क्रियाफले इति एकं सूत्रमस्ति. तेन सूत्रेण अयं धातुः उभयपदी भवति. धातुः स्वरितेत् चेत् क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तदा तत्र आत्मनेपदसंज्ञकप्रत्ययाः भवन्ति. तादृशी स्थितिः नास्ति चेत्, इत्युक्ते क्रियायाः फलम् अन्येषां प्रति गच्छति चेत् तदा परस्मैपदसंज्ञकप्रत्ययानां विधानं भवति. स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रमस्ति, तेन सूत्रेण उच्यते. किन्तु अत्र किम् अवगन्तव्यम्, अयं धातुः स्वरितेत्. धातुः स्वरितेत् चेत् उभयपदी भवति. अस्मिन् परिच्छेदे किम् उक्तमस्ति, अनुदात्तत्वम् उक्तमस्ति, स्वरितत्वम् उक्तमस्ति. अधोभागे रेखा अस्ति चेत् अनुदात्तत्वं सूचयति. अचुवर्णस्य उपरि चिह्नमस्ति चेत् स्वरितत्वं सूचयति. उपरि रेखा नास्ति, अधोभागे अपि रेखा नास्ति, तदा उदात्तः. अनुदात्तत्वम्, उदात्तत्वं, स्वरितत्वम् इति अस्मिन् परिच्छेदे उक्तमस्ति. डुपचांश् इति धातुः स्वरितेत्, तदर्थमेव धातुः उभयपदी भवति. तदर्थमेव तस्य रूपाणि पचति इति एकं रूपं, पचते इति अन्यद् रूपमपि अस्ति. रोहिणी भगिनी, भवती पठतु अग्रे किं लिखितम्.
तर्हि उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत् अनुदातः. उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः. यदा वस धातौ वकारोत्तरवर्ति यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति, अतः सः अकारः अनुदातः. परन्तु शिष धातौ शकारातरवर्ती यः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः। अधोभागे चिह्नम् अस्ति चेत् तत् स्वरम् अनुदात्तः भवति, उपरि चिह्नम् अस्ति चेत् तत् स्वरः स्वरितः भवति। अधोभागे अपि उपरि भागे अपि चिह्नं नास्ति चेत् सः अचुवर्णः उदात्तः भवति इति दत्तम्। उदाहरणेन वसन्धातो वकार उत्तरवर्ति अकारस्य अधोभागे चिह्नम् अस्ति, तस्मात् तत् अनुदातः स्वरः भवति। परन्तु शिशुधातौ शकारोत्तरवर्ति इकारस्य अधोभागे अपि चिह्नं नास्ति, उपरि भागे अपि चिह्नं नास्ति, तस्मात् तत् स्वरः उदात्तः भवति।
उत्तमम्। भवन्तः सर्वे दृष्टवन्तः वा वस् धातोः प्रसङ्गे अपि च शिष्य धातोः प्रसङ्गे? दृष्टवन्तः चेत् इतोपि अवगन्तुं शक्नुमः, स्वराङ्कितधातुपाठं पश्यामश्चेत् वस् धातुः भुवादिगणे अस्ति, चुरादिगणे अस्ति, अदादिगणे अस्ति, दिवादिगणे अपि अस्ति। तत्र अर्थभेदः दृश्यते। भुवादिगणे निवासे इत्यस्मिन् अर्थे अस्ति, अदादिगणे आच्छादने इत्यस्मिन् अर्थे, दिवादिगणे स्तम्भे इत्यस्मिन् अर्थे अस्ति। अहं दृष्टवती, तदर्थं दृष्ट्वा वदन्ती अस्मि। धातुपाठे वस् धातोः प्रसङ्गे भिन्नरूपाणि द्रष्टुं शक्नुमः। भुवादिगणीय वस् धातुः कीदृशः अस्ति? अस्मिन् परिच्छेदे अस्माकं करपत्रे भुवादिगणीय वस् धातोः प्रसङ्गे उक्तमस्ति। भुवादिगणीय वस् धातुः कीदृशः? निवासे इत्यस्मिन् अर्थे सः धातुः अस्ति। अत्र सकारोत्तरवर्ती अनुनासिक अकारः कीदृशः? तत्र किमपि चिह्नं नास्ति, सः केवलम् अनुनासिक अकारः एव। तदा उदात्तेत् इति वक्तव्यं भवति। अयं धातुः उदात्तेत् किमर्थं चेत् अत्र अनुनासिकस्वरवर्णः अनुदात्तः नास्ति, स्वरितः नास्ति, अतः उदात्तः। उदात्तस्वरवर्णः इति संज्ञकः, अतः धातुः उदात्तेत्। धातुः उदात्तेत् चेत् किं भवति? अधोभागे उक्तमस्ति, शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः भवति। इत्युक्ते परस्मैपदसंज्ञकप्रत्ययान् एव गृह्णाति, अस्य धातोः परं परस्मैपदसंज्ञकप्रत्ययानां विधानम् एव भवति इति वार्ता। तदर्थमेव भुवादिगणीयवस् धातोः रूपं वसति निवासे इत्यस्मिन् अर्थे अस्ति। वस् लौकिकधातुः, शप् आयाति, शप् इत्यस्मात् आयाति, पश्चात् ति अस्ति, वस् योगः आयोगः ति वसति इति रूपम् अस्ति। अनुनासिक अचुवर्णस्य वर्णनम् एवं भवति, अनुबन्धवर्णानां निष्कासनानन्तरम् अवशिष्टस्वरवर्णः कीदृशः इति द्रष्टव्यम्। अवशिष्टस्वरवर्णः इत्युक्ते अत्र वकारोत्तरवर्ति अकारः अस्ति, वकारोत्तरवर्ति अकारः अनुदात्तः। किमर्थं चेत् तत्र अधोभागे रेखा अस्ति खलु, तदर्थं वकारोत्तरवर्ति अकारः अनुदात्तः। तेन किमुच्यते? वकारोत्तरवर्ति अकारः अनुदात्तः अस्ति, अधोभागे रेखा अस्ति इत्यतः सः धातुः अनिति। तस्मिन् प्रसङ्गे अधोभागे सूत्रमस्ति, एका च उपदेशे अनुदात्तात् इति एकं सूत्रमस्ति। एका च उपदेशे अनुदात्तात् इत्युक्ते उपदेशावस्थायाम् अनुबन्धवर्णानां लोपकार्यानन्तरम् अवशिष्टस्वरवर्णः अनुदात्तः चेत्, एकाच् चेत् सः धातुः अनिट् भवति। अनुदात्तचिह्नं किं सूचयति? धातोः अनिटत्वं सूचयति। अयं धातुः अनिट् धातुः इति अवगन्तुं शक्नुमः। अयं वस् धातुः भुवादिगणीयः, तस्य रूपं वसति। वस् धातुः अदादिगणे अपि अस्ति, तत्र रूपं कथमस्ति? भवतां पार्श्वे स्वराङ्कितधातुपाठः अस्ति चेत् पश्यन्तु, अदादिगणीयवस् धातुः वसं, तत्र सकारोत्तरवर्ती अनुनासिकाकारः अनुदात्तः, इत्युक्ते सः धातुः अनुदात्तेत्। तत्र सकारोत्तरवर्ती अनुनासिक अकारस्य अधोभागे रेखा दृश्यते, अदादिगणीयवस् धातुः अनुदात्तेत्। तदर्थमेव अनुदात्तनित आत्मनेपदम् इति सूत्रेण अदादिगणीयवस् धातुः आत्मनेपदीसंज्ञकप्रत्ययान् स्वीकरोति, तदर्थमेव तस्य रूपं वस्ते एवं रीत्या स्वराङ्कितधातुपाठं पश्यामश्चेत् अवगन्तुं शक्नुमः. अत्र शिशु धातोः प्रसङ्गे किमुक्तमस्ति? आदौ षकारोत्तरवर्ति अकारस्य प्रसङ्गे पश्यामः. अत्र किमपि चिह्नं नास्ति. षकारोत्तरवर्ति इकारस्य अधोभागे अथवा उपरि वा चिह्नं नास्ति. षकारोत्तरवर्ति अनुनासिक अकारस्य अधोभागे वा अथवा उपरि चिह्नमपि नास्ति. तदर्थमेव अयं शिश् धातुः उदात्तेत् इति वक्तव्यं भवति. अत्र किमपि चिह्नं नास्ति. अत्र स्वरवर्णः उदात्तः, धातुः उदात्तेत्. इत्युक्ते उदात्तेत्, अनुदात्तेत्, स्वरितेत् इमानि पारिभाषिकपदानि धातोः वर्णनं कुर्वन्ति. धातुः कीदृशः? धातुः अनुदात्तेत्, धातुः स्वरितेत्. अत्र शिशु धातोः प्रसङ्गे स्वरवर्णः उदात्तः. किमर्थं चेत् किमपि तत्र चिह्नं नास्ति. अधोभागे इतोपि किं लिखितं? रोहिणी भगिनी भवती एव पठतु अग्रे.
बहुत्र उदात्तस्वरः अनुनासिक्याः अपि अस्ति, नाम चिह्नद्वयम् अस्ति. उदाहरणेन अकारस्य अधोभागे रेखा अस्ति, उपरि भागे अनुनासिक चन्द्रबिन्दु अपि उल्लेखितमस्ति. तत्र तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति आ उदाहरणेन आ दत्तम्. उपरि अनुनासिकचिह्नम् अस्ति, स्वरितचिह्नमपि अस्ति. परन्तु अनुदातः सर्वदा अनुनासिकः अथवा स्वरितः सर्वदा अनुनासिकः इति नियमः नास्ति एव. कदाचित् भवितुमर्हति, कदाचित् नापि भवितुमर्हति. बहुत्र अनुदातस्वरः अनुनासिकः अपि भवति.
भगिनी तस्य कृते एकम् उदाहरणं पश्यामः. बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति. एतदवगन्तुम् उदाहरणं किम्? अदादिगणीयवसुधातोः प्रसङ्गे तत्र स्थितः अनुनासिकस्वरवर्णः अनुदात्तः अपि. तत्र चिह्नद्वयं दृश्यते. सकारोत्तरवर्ति अकारः न केवलम् अनुनासिकः, अनुदात्तः अपि. तदर्थमेव तस्य रूपं वस्ते. बहुत्र स्वरितस्वरः अनुनासिकः अपि अस्ति. एतदवगन्तुं डुपचांश् इति धातोः उदाहरणं स्वीकुर्मः चेत्, डुपचांश् इत्यत्र चकारोत्तरवर्ती अनुनासिक आकारः स्वरितः अपि. तत्र चिह्नद्वयमस्ति. आवर्णे आ इति स्वरवर्णः अस्ति, आवर्णस्य उपरि चन्द्रबिन्दुः अस्ति, स्वरितचिह्नम् अपि, रेखा अपि अस्ति. इत्युक्ते पृथक्तया द्रष्टुं न शक्नुमः, किन्तु तत्र अस्ति एव. चिह्नद्वयं दत्तमस्ति. न केवलं चन्द्रबिन्दुः, स्वरितचिह्नं, रेखा अपि तत्र अस्ति. अत्र विषयः कः? अनुदात्तः सर्वधा अनुनासिकः, स्वरितः सर्वधा अनुनासिकः इति नियमः तु नास्ति. अस्य अर्थः कः वदतु?
कदाचित् अनुदात्तः अनुनासिकः अपि भवति, स्वरितः अपि भवितुम् अर्हति.
सः अनुनासिकस्वरवर्णः सर्वदा अनुदात्तः भवेत् इति नियमः नास्ति. एवमेव अनुनासिकस्वरवर्णः सर्वदा स्वरितः भवति इति नियमः अपि नास्ति. धातुपाठं पश्यामश्चेत् अस्य अवगमनं भवति. शिश् धातोः प्रसङ्गे अहं दृष्टवती, तदर्थं वदन्ती अस्मि. त्रयः शिश् धातवः. एकः धातुः भुवादिगणे अस्ति. तत्र शिशा हिंसार्धे अस्ति भुवादिगणीयशिश् धातुः. तत्र किमपि चिह्नं नास्ति. उपरि नास्ति, अधः नास्ति इति कृत्वा अस्मिन् धातौ स्वरवर्णः उदात्तः. उदात्तः अस्ति इति कारणतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदसंज्ञकान् गृह्णाति. तदर्थं तस्य रूपं शेषति. धातुः इदुपथधातुः. शिश् उपधायां ह्रस्वीकारः अस्ति खलु, तदर्थम् इदुपथधातुः. अतः भुगन्तलघुपथस्य च इत्यनेन गुणकार्यं भूत्वा शिश् शेष् भवति, पश्चात् आयाति, तेन शेषति इति रूपम् अस्ति. अपि च शिश् धातुः चुरादिगणे अस्ति. तत्रापि किमपि चिह्नं नास्ति. स्वरितचिह्नं नास्ति, अनुदात्तचिह्नं नास्ति. तदा किं वदामः? सः स्वरवर्णः उदात्तः. चुरादिगणीयशिश् धातोः रूपं शेषयति. एकः शिश् धातुः रुधादिगणे अस्ति. शिश्लु रुधादिगणीयशिश् धातोः प्रसङ्गे वदन्ती अस्मि. विशेषणे इत्यस्मिन् अर्थे अस्ति. तत्र धातौ अनुनासिकलुकारः अस्ति. सः अनुनासिकलुकारः उपदेशे जनुनासिक इत् इत्यनेन इत् संज्ञकः भवति, तस्य लोपः इत्यनेन अपगच्छति. तत्र लौकिकधातुः सिश् एव. तत्र रूपं कथमस्ति इति प्रश्ने सति सिश्लु इत्यत्र शकारोत्तरवर्ती इकारः अनुदात्तः. पश्यन्तु, तत्र लुकारः अनुनासिकः, स्वरितचिह्नं अनुदात्तचिह्नं नास्ति. सः लुकारः इत् संज्ञकः भूत्वा अपगच्छति. अनुबन्धवर्णस्य लोपानन्तरं तत्र सिश् अवशिष्यते. सिश् इत्यत्र शकारोत्तरवर्ति इकारः अस्ति खलु, सः इकारः अनुदात्तः. तत्र इकारस्य अधोभागे रेखा दृश्यते. शकारोत्तरवर्ति इकारः अनुदात्तः अस्ति, अधोभागे रेखा अस्ति इति कारणतः. तेन किमुच्यते? अवशिष्टस्वरवर्णः अनुदात्तः अस्ति इति कारणतः एकाच उपदेशे अनुदात्तात् इति सूत्रेण अयं धातुः एकाच धातुः, इत्युक्ते अनुबन्धवर्णानां लोपकार्यानन्तरं धातौ एकः एव अचुवर्णः अस्ति, अपि च सः अवशिष्टस्वरवर्णः अनुदात्तः. धातौ स्थितस्य अवशिष्टस्वरवर्णस्य आधारेण ईड् व्यवस्था ज्ञायते इति उक्तं खलु. तदर्थमेव रुधादिगणीय सिश् धातोः प्रसङ्गे शकारोत्तरवर्ती इकारः अनुदात्तः अस्ति. अयं धातुः एकाच धातुः, अनुबन्धवर्णस्य लोपानन्तरम् अवशिष्टस्वरः अनुदात्तः अस्ति, अतः एकाच उपदेशे अनुदात्तात् इति सूत्रेण अयं धातुः अनिट् भवति, अनिटत्वं सूचयति. अनिट् सेट् इति चिन्तनं कदा भवति? आर्धधातुकप्रक्रियायाम् एव, इत्युक्ते आर्धधातुकलकारेषु अपि च आर्धधातुककृत् प्रत्ययानां रूपसिद्धौ इडागमचिन्तनं करणीयं. सः धातुः सेट् वा अनिट् वा, तत्र इडागमः भवति वा न वा, एतत् सर्वं चिन्तनीयम्. अवशिष्टस्वरस्य आधारेण अनिटत्वं भुवादिगणे शेषति, चुरादिगणे शेषयति, रुधादिगणे शिनष्टि. पश्यन्तु रूपं कथमस्ति. धातुः शिष्येव, रुधादिगणे तस्य रूपं शिनष्टि. रुदादिभ्यः श्नम् इति सूत्रेण, श्नम् इति विकरणप्रत्ययः आयाति खलु, विकरणप्रत्ययस्य भागः धातोः मध्ये आगत्य उपविशति खलु, अन्तिम अचुवर्णस्य अनन्तरम् आगत्य उपविशति. तदर्थमेव तस्य रूपं शिनष्टि. रुधादिगणीयधातूनां रूपाणि किञ्चित् विशिष्टानि. शिनष्टि, शिंष्टः, शिंशन्ति इत्यादीनि रूपाणि सन्ति. रुधादिगणे एवं रीत्या धातोः रूपम् अस्ति. स्वरवर्णानां प्रसङ्गे एव स्वरितत्वम्, अनुदात्तत्वम्, उदात्तत्वम् एतादृशचिन्तनं भवति, न तु व्यञ्जनानां विषये. व्यञ्जनानां विषये एतादृशचिन्तनम् अनावश्यकम्. व्यञ्जनेषु केवलं य वा ल एतेषां त्रयाणां प्रसङ्गे एव अनुनासिकप्रभेदः अस्ति. यकारः अपि च अनुनासिकयकारः, एवमेव वकारः अनुनासिकवकारः, लकारः अनुनासिकलकारः. एतेषां त्रयाणां व्यञ्जनानां प्रसङ्गे एव अनुनासिकप्रभेदः अपि अस्ति. व्यञ्जनानां प्रसङ्गे अनुदात्तत्वं, स्वरितत्वम्, उदात्तत्वम् एतादृशचिन्तनं नास्ति. केवलं स्वराणां प्रसङ्गे एव एतादृशचिन्तनं भवति. तस्मिन् धातौ स्थितः स्वरवर्णः कीदृशः इति चिन्तनं सर्वदा आवश्यकम्.
भगिनी, मम एकः प्रश्नः अत्र स्वराङ्गितधातुपाठे यत्र अर्थः दत्तं तत्र अपि स्वरित अनुदात्त स्वरित अनुदात्तचिह्नं सन्ति, चिह्नानि सन्ति, तत् किं सूचयति भगिनि? किमपि धातु स्वीकरोतु, फार् एक्साम्पल् आप् धातु स्वीकरोतु, तत्र आप्लु तत्र अनुदात्तचिह्नमस्ति, अनुनासिकचिह्नमस्ति, व्याप्तौ इति अर्थः, तत्र व्या तत्र आकारस्य उपरि चिह्नमस्ति, स्वरितचिह्नमस्ति.
प्रथमे पुटे केचन धातवः सन्ति, वदतु.
प्रथमे पुटे भवती अक् स्वीकरोतु. अक् धातु भादिगणीयधातु, सेट् परस्मैपदि, अकौ इति औपदेशिकरूपं, कुटिलायाम् इति अर्थः. तत्र अर्थे अनुदातचिह्नम् अस्ति, किमर्थं गतौ तत्र स्वरितचिह्नम् अस्ति? तत् उच्चारणार्थं वा?
उच्चारणार्थम् इति मम चिन्तनम्.
अस्तु, उच्चारणार्थमेव इति अहं चिन्तयामि. ओके, अस्तु भगिनि.
पूर्वतनकाले पाठनशैली तादृशी अस्ति खलु, पुस्तकानि न सन्ति, ग्रन्थाः न सन्ति चेत् केवलं श्रवणमात्रेण एव सर्वं ज्ञातव्यं खलु. तदर्थम् एतादृश उच्चारणं भवेत् इति वक्तुं तथा लिखितमस्ति इति मन्ये. पुरतः स्वराङ्कितधातुपाठः अस्ति चेत् पश्यन्तु. भगिनी, प्रथमधातोः प्रसङ्गे किञ्चित् वदतु.
अंस इति धातुः दत्तम्. अंस इति धातु, अंस इति कोष्टके अस्ति, चुरादिगणीयधातुः. सेट् उभयपति, असौ इति औपदेशिकरूपं, समाधाते इति अर्थः अस्ति. धातुः औपदेशिक अवस्थायाम् अंस इति अस्ति, तत्र अनुनासिक अकारः अस्ति. अनन्तरं एकम् अनुस्वारचिह्नयुक्तम् अकारः अपि अस्ति. अनुनासिक अकारस्य अधः उपरि किमपि चिह्नं नास्ति, ततः तद् उदात्त अनुनासिक अकारः. तस्य लोपः भवति उपदेशजनुनासिक इति सूत्रेण. केवलम् अंस अंस इति लौकिकरूपम्.
उत्तमम्. अंस धातुः चुरादिगणे अस्ति इति कारणतः अंसयति. भगिनी, अत्र परसवर्णरूपं किमर्थं न दत्तम्?
सकारस्य परसवर्णः नास्ति न भगिनि?
उत्तमम्. अनुस्वारः यथावत् तिष्ठति. सकारस्य परसवर्णरूपं नास्ति इति कारणतः तत्र अनुस्वारयुक्तं रूपमेव एवमेव लेखनीयं. साधु भगिनि. रोहिणी भगिनी, भवती वदतु, अत्र द्वितीयधातुः अहिं इति दत्तमस्ति, तस्मिन् प्रसङ्गे वदतु.
द्वादिगणे सेट् अहि गतौ, तत्र हकारस्य अधोभागे इकारस्य अस्ति, अनुदातः अस्ति, उपरि अनुनासिकचिह्नम् अस्ति, तस्मात् इकारस्य अनुदात अनुनासिकवर्णम् अस्ति. उपदेशे सूत्रेण इकारस्य इत्थं भवति, तस्य लोपः इति सूत्रेण लोपः अपि भवति, अह इति अवशिष्यते.
लौकिकधातोः रूपं साधयतु. अह्यौ इत्यत्र अनुनासिक इकारः अस्ति खलु, अतः अयं धातुः इदित् धातुः खलु. इत्युक्ते अत्र धातौ अनुनासिक इकारः इत् संज्ञकः, तेन इदितोनुं धातोः इति सूत्रेण अन्तिम अचुवर्णस्य अनन्तरं नुमागमः भवति, तेन तत्र नकारः आयाति. वदतु.
अनुसारसूत्रं नकारस्य अपि अनुसारत्वं भवति, अम्ह इति लौकिकरूपं सिद्ध्यति.
उत्तमम्. अहं धातुपाठे द्वितीयधातोः प्रसङ्गे वदन्ती अस्मि. अत्र धातोः रूपं कथं लिखितम् अस्ति? अह्यौ. अत्र हकारोत्तरवर्ती इकारः न केवलम् अनुनासिकः, तस्य अधोभागे रेखा अस्ति, अतः अनुदात्तः अपि. अयं धातुः इदित् धातुः अपि च अनुदात्तेत्. इदित् धातुः अस्ति इति कारणतः इदितोणुं धातोः इति सूत्रेण अन्तिम अचुवर्णस्य अनन्तरं नुमागमः भूत्वा नकारः आयाति, तेन अन्ह नकारसहितं रूपम् आदौ आयाति, पश्चात् नश्चापदान्तस्य झलि इति सूत्रेण हकारः झल् वर्णः अस्ति इति कारणतः तत्र स्थितस्य नकारस्य स्थाने अनुस्वारादेशः भवति, किन्तु हकारस्य परसवर्णरूपं नास्ति, परसवर्णादेशः न भवति, तदर्थम् आंह इति रूपं सिद्ध्यति. इत्युक्ते अनुस्वारयुक्तं रूपं तत्र आयाति. लौकिकधातुः आंह धातुः अंह अस्ति, तस्मात् परं कीदृशप्रत्ययः योजनीयः? अयं धातुः आत्मनेपदि वा परस्मेपदि वा उभयपदि वा कथं ज्ञायते? अत्र पश्यन्तु, धातोः अधोभागे रेखा अस्ति, धातुः अनुदात्तेत्, अनुनासिकस्वरवर्णः अनुदात्तः अपि. अतः धातुः अनुदात्तेत् अनुदात्तेत् चेत् अनुदात्तनित आत्मनेपदम् इति सूत्रेण अस्य धातोः परम् आत्मनेपदसंज्ञकप्रत्ययानां विधानं भवति, अतः अस्य धातोः रूपम् अंहते आत्मनेपदि. एवं रीत्या सर्वेषां धातूनां प्रसङ्गे चिन्तनं करणीयम् इति विषयः. अग्रे सरेम. इदानीं नरेश् महोदय, कृपया पठतु करपत्रात्.
तेषां त्रयाणां संज्ञकस्वराणाम् उच्चारणभेदाः उच्चैरुदात्त उदात्तः इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति. नीचैरनुदात्तः इत्यनेन अनुदात्तः नाम ध्वनिः अधो दिशि गच्छति. समाहारः स्वरितः इत्यनेन स्वरितः नाम ध्वनि न उपरि न व अधः. तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानीन्तनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः. अत्र दत्तम् उच्चारणभेदः दत्तम्. उच्चैरुदात्तः अस्ति, उदात्तः ध्वनिः उपरि गच्छति. नीचैरु अनुदात्तः, अत्र अनुदात्तः ध्वनिः अधः दिशि गच्छति. अपि च समाहारः स्वरितः, अत्र स्वरितः ध्वनिः न उपरि गच्छति न अधः गच्छति. तत् भेदः पुरातनकाले आसीत्, परन्तु इदानीन्तनकाले तत् भेदः न जातः, तत् भेदः लुप्तः. परन्तु पुरातनकाले उदात्तः उपरि गच्छति, अनुदात्तः अधः गच्छति, स्वरितः न उपरि गच्छति न अधः गच्छति.
इतोपि मया किं पठितम्? अत्र त्रीणि संज्ञासूत्राणि दत्तानि. उदात्तः नाम किम्, अनुदात्तः नाम किं, स्वरितः नाम किम् इति ज्ञायते. उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः. ध्वनिः उपरि गच्छति अधः गच्छति एवम् अत्र लिखितमस्ति. प्रत्येकं स्वरवर्णस्य उच्चारणस्थानमस्ति खलु. अकुः विसर्जनीयानां कण्ठः, इचु यशानां तालु, ऋटुरसानां मूर्धा, ऋतुलसानां दन्ताः. एवं प्रत्येकं स्वरवर्णस्य उच्चारणस्थानमस्ति. उदाहरणार्थम् आवर्णः अस्ति, आवर्णस्य उच्चारणस्थानं कण्ठः. उदात्त अकारः इति वक्तुमिच्छामश्चेत् कण्ठस्य ऊर्ध्वभागात् अकारस्य उच्चारणस्थानं कण्ठः अस्ति. कण्ठस्य ऊर्ध्वभागात् यः अकारः निष्पद्यते सः अकारः उदात्तः. अनुदात्त अकारः इति वक्तुमिच्छामश्चेत् कण्ठस्य अधोभागात् यः ध्वनिः अकारस्य ध्वनिः निष्पद्यते सः अनुदात्तः. समाहारः स्वरितः इति उक्तमस्ति. उदात्त अकारः, अनुदात्त अकारः, स्वरित अकारः एवं प्रभेदाः सन्ति खलु. स्वरित अकारः इत्युक्ते मुखस्य उपरि भागः अधोभागः, भागद्वयेन यः अकारः निष्पद्यते यः अकारस्य ध्वनिः आयाति सः स्वरितः इति वक्तव्यम्. उच्चैरुदात्तः इति कथनेन लौड् सौण्ड् इति अर्थः नास्ति. नीचैर् अनुदात्तः इति कथनेन तत्र लो वाल्यूम् इति अर्थः तत्र नास्ति. सः वर्णः मुखस्य कस्मात् भागात् निष्पद्यते इति तत्र द्रष्टव्यम्. उदात्तः इति कथनेन कण्ठस्य ऊर्ध्वभागात् अकारः आयाति चेत् सः अकारः उदात्तः. कण्ठस्य अधोभागात् सः अकारः निष्पद्यते चेत् सः अकारः अनुदात्तः. भागद्वयेन ऊर्ध्व अधोभागाभ्यां सम्पद्यमानः अकारः स्वरितः. एवं रीत्या उच्चारणभेदाः सन्ति, किन्तु इदानीन्तनकाले तादृश अभ्यासः लुप्तः जातः. इमानि त्रीणि सूत्राणि संज्ञाविधायकसूत्राणि. मुखस्य ऊर्ध्वभागम् उपयुज्य यः ध्वनिः निष्पद्यते सः उदात्तः. मुखस्य अधोभागात् यः ध्वनिः निष्पद्यते सः अनुदात्तः. उपरि भागः अधोभागः, उपरि अधोभागाभ्यां निष्पद्यमानः स्वरः स्वरितः इति वक्तव्यमस्ति. है वाल्यूम् लो वाल्यूम् इति अर्थः तत्र नास्ति, किन्तु कथम् उच्चारणीयम् इति न जानामि. यदा वेदं शृणुमः तदा किञ्चित् अवगन्तुं शक्नुमः. पदव्यवस्थायाः प्रसङ्गे इतोपि किञ्चित् दत्तमस्ति. महोदय भवानेव पठतु.
अधुना पाणिनीयधातुपाठे पदव्यवस्थाय व्यवस्थाम् अवलोकयाम, अनन्तरम् इड् व्यवस्था दृश्यताम्। पदव्यवस्था, पदव्यवस्था इत्युक्ते धातुः परस्मैपदी धातुः वा आत्मनेपदी धातुः वा उभयपदी धातुः वा इत्यस्य बोधः। अत्र पदव्यवस्था विषये वदति, वयम् अवलोकयाम किमपि धातुः परस्मैपदी धातुः अस्ति अथवा आत्मनेपदी धातुः अस्ति अथवा उभयपदी धातुः अस्ति, वयम् अत्र अवलोकयाम।
वयं पूर्वं पठितवन्तः खलु, एकं सूत्रं दृष्टवन्तः, लुङ् लङ् लृङ्क्षु अडुदात्तः, लङ् लकारप्रसङ्गे लुङ् लकारप्रसङ्गे आदौ अडागमः भवति, तदर्थमेव भूधातोः लङ् लकाररूपम् अभवत्, पठ् धातोः लङ् लकाररूपम् अपठत् इत्यादीनि रूपाणि सन्ति खलु। लङ् लकाररूपेषु आदौ अडागमः भवति, सः अट् आगमः कीदृशः, अट् टित् अस्ति अतः आदौ आयाति इति तु साधु, किन्तु सः अट् आगमः उदात्तः। सूत्रे किमुच्यते, लुङ् लङ् लृङ्क्षु अट् उदात्तः, अट् आगमः भवति सः अकारः उदात्तसंज्ञकः। उदात्तस्वरित अनुदात्तप्रभेदानां प्रामुख्यं तु अस्ति एव, वयं न जानीमः इति तु अन्या वार्ता, तस्य प्राधान्यं तु अस्ति व्याकरणलोके। पश्यन्तु तत् सूत्रं, लुङ् लङ् लृङ्क्षु अडुदात्तः इति उक्तमस्ति, सः अट् टित् अस्ति, उदात्तः अपि, सः अकारः उदात्तस्वरः इति तस्मिन् सूत्रे उक्तमस्ति। पुनः तत् सूत्रं पश्यन्तु अवगमनार्थम्। अनुदात्तः स्वरितः उदात्तः इति स्वराणां प्रसङ्गे, किन्तु अनुदात्तेत् उदात्तेत् स्वरितेत् इति धातूनां प्रसङ्गे उक्तमस्ति। पदव्यवस्थां ज्ञातुं सूत्राणि आवश्यकानि। पठतु महोदय, इदानीं पठतु।
अस्माभिः पूर्वमेव दृष्टं यत् धातुषु अनुनासिकः अच् इत् संज्ञा प्रयोजयति, इत् संज्ञां प्रयोजयति नाम अनुनासिकस्वरेण इत् संज्ञा सूच्यते इत्यर्थः। अस्य एव इत् संज्ञकस्य स्वरस्य अनुदात्तत्वम् उदात्तत्वं स्वरितत्वं च पदव्यवस्थां सूचयति। तर्हि इत्संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते कथम् इति पश्येम। यथा एधं वृद्धौ, दकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः अस्ति, अनुनासिकः अतः इत्संज्ञः संज्ञकः, अधस्थात् चिह्नम् अस्ति अतः अनुदात्तः अपि अस्ति, अनुनासिकः अकारः अनुदात्तः अपि अस्ति, अतः एधं धातुः आत्मनेपदी, किमर्थम् इति चेत् अग्रे सरेम। अत्र दत्तं वयं किञ्चित् धातुः अनुनासिक अपश्यत् दृष्टवान्, तत्र अनुनासिक अच् वर्णस्य इत्संज्ञा भवति उपदेशे अजनुनासिक सूत्रेण, तत्र इत्संज्ञा तु भवति। आदा वयं पश्याम तत् स्वरः किमस्ति, अनुदात्ता अस्ति उदात्ता अस्ति वा स्वरिता अस्ति, तत् भेदः अस्माकं सूचयति। तत् धातुः धातोः पदव्यवस्था किम् अस्ति, अत्र उदाहरणं दत्तम् एधन् एधन् धकारो वर् वर्ति अकारः अनुनासिकः अस्ति अतः तस्य इत् संज्ञा भवति परन्तु दकारोत्तवर्ति अकारः किम् अस्ति अनुदात्तः अस्ति अनुदात्तः अस्ति इत् संज्ञा भवति चेत् एतत् अनुदात्तेत् अस्ति अनुदात्तेत् अस्ति चेत् धातुः आत्मनेपदी अस्ति
तदेव महोदय आदौ इत् संज्ञकस्वरवर्णस्य आधारेण पदसंज्ञा ज्ञायते इत् संज्ञकस्वरवर्णस्य अनुदात्तत्वम् अस्ति वा उदात्तत्वम् अस्ति वा स्वरितत्वम् अस्ति वा इति द्रष्टव्यम् अनुदात्तत्वम् अधोरेखया सूच्यते किमपि चिह्नं नास्ति चेत् उदात्तत्वं सूच्यते स्वरवर्णस्य उपरि रेखा अस्ति चेत् स्वरितत्वं सूच्यते एवं रीत्या इतसंज्ञकस्वरेण पदसंज्ञा ज्ञायते उदाहरणम् एधधातुः अत्र पश्यन्तु धकारोत्तरवर्ती यः अकारः अस्ति तत्र अधोभागे रेखा अस्ति धकारोत्तरवर्ती अकारः अनुनासिकः अनुनासिकः अस्ति इति कारणतः इत् संज्ञकः तदर्थम् उपदेशजनुनासिक इत् इत्यनेन तस्य इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन अपगच्छति अधोभागे रेखा अस्ति इति कारणतः अयं धातुः अनुदात्तेत् धातुः धातुः अनुदात्तेत् अतः अनुदात्तनित आत्मनेपदं तेन सूत्रेण अयं धातुः केवलम् आत्मनेपदिसंज्ञकप्रत्ययान् एव गृह्णाति अतः एव तस्य रूपम् एधते न तु एधति एधति इति रूपम् असाधु किमर्थं चेत् धातुः अनुदात्तेत् धातुः अनुदात्तेत् चेत् आत्मनेपदिसंज्ञकप्रत्ययाः एव विधीयन्ते इति वार्ता अत्र धातुः अनुदात्तेत् धातुः अनुदात्तेत् अतः आत्मनेपदिसंज्ञकप्रत्ययाः एव तस्मात् परं विधीयन्ते इति कथं ज्ञायते तदवगन्तुमेव अत्र सूत्रं दत्तमस्ति अनुदात्तनित आत्मनेपदम् इति सूत्रं तदेव वदति सत्यभामा भगिनी भवती पठतु
अनुदात्तनित आत्मनेपदम् यस्य धातोः अनुदात्तस्वरस्य नकारस्य च इत्संज्ञा च इत्संज्ञा भवति सः धातुः आत्मनेपदी अनुदात्तः च न च अनुदात्तौ तौ इदौ यस्य सः अनुदात्तमिद द्वन्द्वगर्भबहुव्रीहिः तस्मात् अनुदात्तनिदः पञ्चम्यन्तम् आत्मनेपदं प्रथमान्तं द्विपदमिदं सूत्रं भूवादयो धातवः इत्यस्मात् धातोः इत्यत्र अनुवृत्ति टीकाकारः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् अनुवृत्तिसहितसूत्रम् अनुदात्तज्ञित धातोः लस्य आत्मनेपदम् यस्य एतत् आत्मनेपदविधायकसूत्रमस्ति यस्य धातोः अनुदात्तस्वरस्य नकारस्य च इत्संज्ञा भवति सः धातुः आत्मनेपदी इति इदानीं वयं दृष्टवन्तः कथम् आत्मनेपदित्वं धातोः विद्यते इति यदि तादृशधातुः अस्ति चेत् तस्य अनेन सूत्रेण आत्मनेपदप्रत्ययः अपि विद्यते एतत् अहं न जानामि भगिनि अनु बहुव्रीहि द्वन्द्वगर्भ तत् अहं न जानामि
अनुदात्तश्च इति उक्तमस्ति तत्र विसर्गसन्धिः अस्ति विसर्जनीयस्य सः खरि कखपफेतुविसर्गः इति एकं भाट्टसूत्रमस्ति प्रथमं भाट्टसूत्रम् अनुदात्तः योगः च इति अस्ति च वर्णः खर् प्रत्याहारस्थवर्णः विसर्गात् परं खर् प्रत्याहारस्थवर्णः चकारः अस्ति इति कारणतः विसर्गस्य स्थाने दन्त्यसकारः आदौ आयाति विसर्जनीयस्य सः इति कथनेन विसर्गस्य स्थाने दन्त्यसकारः आदिष्टः भवति खरि परे खर् प्रत्याहारस्थवर्णः चकारः परः अस्ति इति कारणतः आदौ दन्त्यसकारः आयाति पश्चात् स्तोः श्चुनाश्चुः श्चुत्वसन्धेः सूत्रम् अत्र चकारः परवर्णः चकारस्य प्रभावेण दन्त्यसकारस्य स्थाने तालव्यषकारः आदिष्टः भवति अतः अनुदात्तश्च यस्मिन् धातौ अनुदात्तस्वरवर्णः इति संज्ञकः भवति अथवा ञकारः इति संज्ञकः भवति अत्र दलद्वयम् उक्तमस्ति यस्मिन् धातौ अनुदात्तस्वरवर्णः इति संज्ञकः अपि च यस्मिन् धातौ ञकारः इति संज्ञकः अस्ति तादृशधातुः द्वयोः प्रसङ्गे उक्तमस्ति तदर्थं द्वन्द्वसमासः करणीयः अत्र द्वन्द्वसमासं कृत्वा अनुदात्तनौ अनुदात्तनौ इति द्वन्द्वसमासयुक्तं पदमस्ति अपि च अनुदात्तनित् इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति कथम् अनुदात्तनौ इतौ यस्य सः तौ इतौ यस्य सः तौ द्वौ कौ इत्युक्ते अनुदात्तनौ
अनुदात्तः अपि च निदः
उत्तमम् अनुदात्तनौ इति समस्तपदम् अपि च अनुदात्तनित् इति अन्यत् समस्तपदम् अनुदात्तनित् इत्यस्य विग्रहवाक्यं कथं भवति अनुदात्तनौ इतौ यस्य सः अनुदात्तनित् इति धातोः विशेषणं भवति बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति अत्र अन्यपदं धातुः धातोः विशेषणमेव अनुदात्तनित् अनुदात्तनित् इत्यस्मिन् द्वन्द्वगर्भ बहुव्रीहिसमासः अस्ति इत्युक्ते बहुव्रीहिसमासस्य गर्भे द्वन्द्वसमासः अपि अस्ति आदौ द्वन्द्वसमासः करणीयः पश्चात् बहुव्रीहिसमासः अपि अस्ति बहुव्रीहिसमासस्य गर्भे द्वन्द्वसमासः अस्ति समस्तपदम् अनुदात्तनित् किन्तु सूत्रे किम् उक्तमस्ति अनुदात्तनितः इति पञ्चम्यन्तं पदमस्ति सूत्रेषु पञ्चम्यन्तं पदं दृश्यते चेत् परकार्यम् इति अर्थः पूर्वनिमित्तं परकार्यम् अत्र परकार्यं किम् अनुदात्तनितः इति कथनेन अनुदात्तेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः अनुदात्तेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः किं भवति वदतु
आत्मनेपदिप्रत्ययः विधीयते इति तेभ्यः आत्मनेपदित्वं प्राप्यते
आत्मनेपदम् इति प्रथमान्तमस्ति पदद्वयमेव सूत्रे अस्ति अनुदात्तेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते अत्र एकं वाक्यं दत्तमस्ति टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् अस्य वाक्यस्य अर्थः कः
सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् आत्मनेपदम् इत्यस्मिन् यस्य इत्यस्यापि अर्थः आगच्छति इति
एकवारम् अनुवृत्तिसहितसूत्रं पठतु
अनुदात्तनिदः धातोः लस्य आत्मनेपदम् अत्र लस्य इति आय अस्ति
लस्य इति एकम् अधिकारसूत्रम् अस्ति तस्य सूत्रस्य अवसरः अत्र किमर्थम् अस्ति वदतु
यदा वयम् आत्मनेपदी प्रत्ययः सूचयति तत्र लकारस्य स्थानं भवितुम् अर्हति खलु लस्य स्थाने एव वयं प्रत्ययः स्थापयितुं शक्यते खलु विद्यते इति वदामः चेत् ते इति लस्य स्थाने एव आगच्छति खलु तत्र एव पुनः किमपि कार्यं कर्तुं शक्यते
अत्र इतोपि किञ्चित् विवरणम् आवश्यकं गोमती भगिनी भवती वक्तुमिच्छति वा
सम्यक् न जानामि परन्तु लस्य इति सूत्रे अधिकारसूत्रमस्ति तिप्तश्चि इति प्रत्ययः भवति लस्य स्थाने आत्मनेपदं न जानामि भगिनी सम्यक् वक्तुं न जानामि
लस्य इति एकम् अधिकारसूत्रम् अस्ति अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् अनुदात्तनितः धातोः लस्य आत्मनेपदम् धातुः कीदृशः अनुदात्तेत् भवेत् अथवा नित् भवेत् तदा तस्मात् परम् आत्मनेपदि प्रत्ययाः विधीयन्ते इति विषयः किन्तु अत्र लस्य इत्यस्य अवसरः कः नास्ति चेत् किं भवति लस्य इति चिन्तनीयं लस्य इति षष्ट्यन्तं पदमस्ति लस्य षष्ट्यन्तं पदमस्ति इति कारणतः स्थानी भवति लस्य इत्युक्ते लकारस्य स्थाने लट् लोट् लङ् विधिलिङ् एवं रीत्या दशलकाराः सन्ति खलु भाषायां. दशलकारेषु लट् इति कथनेन टकारः इति संज्ञकः, तत्र अकारः उच्चारणार्थः. केवलं ला एव तत्र अवशिष्यते. लट् इत्यत्र केवलं ला एव अवशिष्यते. लकाराः अपि प्रत्ययाः एव. धातोः परं प्रत्ययं योजयामः. लकारस्य स्थाने प्रत्ययानां विधानं भवति. अष्टादश तिङ्प्रत्ययाः सन्ति खलु. नव आत्मनेपदिसंज्ञकप्रत्ययाः, नव परस्मैपदिप्रत्ययाः सन्ति, अथवा तिङ् प्रत्ययाः. तिप्तस् झि इत्यस्मात् आरभ्य महिङ् पर्यन्तम् अष्टादशप्रत्ययाः सन्ति. प्रथमनवप्रत्ययाः परस्मैपदिसंज्ञकप्रत्ययाः. ता आतां झ था सा थां ध्वम् इड्वहि महिङ् एते नवप्रत्ययाः आत्मनेपदिसंज्ञकप्रत्ययाः. तिङ् भिन्नः तङ् भिन्नः. तिङ् इति कथनेन अष्टादशप्रत्ययानाम् उल्लेखः अस्ति. केवलं नव आत्मनेपदिप्रत्ययानां नाम अस्ति तङ् किमर्थं? ता आतां झ था सा थां ध्वम् इड्वहि महिङ् ता इत्यस्मात् आरभ्य महिङ् पर्यन्तं स्वीकरणीयम्. तङ् इति प्रत्याहारे केवलं नव आत्मनेपदिसंज्ञकप्रत्ययाः सन्ति. किन्तु अत्र विषयः कः? धातूनाम् आत्मनेपदत्वम् अनुदात्तनित आत्मनेपदम् इति सूत्रेण उच्यते. किन्तु प्रत्ययानां प्रसङ्गे अपि वक्तव्यं, प्रत्ययस्य आत्मनेपदत्वं तस्मिन् प्रसङ्गे अपि वक्तव्यमस्ति. धातुः आत्मनेपदी धातुः अस्ति, किन्तु तस्मात् परं कीदृशप्रत्ययः भवेत् इति अपि प्रश्नः उदेति. तत्र कम्पाटिबिलिटि आवश्यकं. धातुः आत्मनेपदी धातुः कथं भवति? धातुः आत्मनेपदी अनुदात्ते चेत् आत्मनेपदी, नित् चेत् आत्मनेपदी, किन्तु तादृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययः विहितः भवति. तत्र प्रत्ययस्य आत्मनेपदत्वम् अपि वक्तव्यमस्ति. कदा विधीयन्ते इति अवगन्तुं प्रत्ययानां प्रसङ्गे अपि वक्तव्यं. प्रत्ययानां प्रसङ्गे वक्तुम् एकं सूत्रमस्ति, तङ्गानाम् आत्मनेपदं. तङ् इत्युक्ते नव आत्मनेपदिसंज्ञकप्रत्ययाः. ता इत्यस्मात् आरभ्य महिङ् पर्यन्तं केवलं नवप्रत्ययाः. ते नवप्रत्ययाः आत्मनेपदित्वं स्वीकुर्वन्ति. तेषां प्रत्ययानाम् आत्मनेपदसंज्ञा अस्ति. इत्युक्ते अनुदात्तनित आत्मनेपदम् इति सूत्रेण धातोः आत्मनेपदत्वं सूच्यते. तङ्गानाम् आत्मनेपदम् इति सूत्रेण प्रत्ययस्य आत्मनेपदत्वम् उच्यते. तङ्गानाम् आत्मनेपदम् इति कथनेन तङ् प्रत्ययाः आत्मनेपदिसंज्ञकाः, अपि च शाणच् प्रत्ययः कानच् प्रत्ययः. तत्र शाणच् कानच् द्वयोः प्रत्ययोः आन इति रूपम् अवशिष्यते. तत्प्रत्ययद्वयम् अपि आत्मनेपदत्वं प्राप्नोति तङ्गानाम् आत्मनेपदम् इति सूत्रेण. धातूनां प्रसङ्गे एकं सूत्रमस्ति, प्रत्ययानां प्रसङ्गे तङ्गानाम् आत्मनेपदम् इति सूत्रमस्ति. एतयोः द्वयोः सूत्रयोः मध्ये सम्बन्धः आवश्यकः. आहत्य सारांशः कः? एतादृशेषु नित्सु धातुषु अथवा अनुदात्तेत् धातुषु यः तिङ्प्रत्ययः धातोः परं विधीयते, सः प्रत्ययः आत्मनेपदिसंज्ञकप्रत्ययः एव भवेत्. धातुः आत्मनेपदी चेत् आत्मनेपदिसंज्ञकप्रत्ययः एव भवेत्. धातुप्रत्ययोः मध्ये अत्र सम्बन्धं कल्पयितुं लस्य इति पदम् उक्तमस्ति. एवं रीत्या अत्र लस्य इति पदं नास्ति चेत् अर्थः न बुध्यते, अर्थबोधः न जायते. यस्मिन् धातौ अनुदात्तस्वरः इत्संज्ञकः अस्ति अथवा यस्मिन् धातौ ञकारः इत्संज्ञकः अस्ति, तादृशधातोः परम् अनुदात्तनितः इति पञ्चम्यन्तमस्ति खलु, तादृशस्य धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते. अनेन सूत्रद्वयेन, सूत्रद्वयं किम्? अनुदात्तनित आत्मनेपदम् इति धातूनां कृते, तङ्गानाम् आत्मनेपदम् इति प्रत्ययानां कृते. एतेन सूत्रद्वयेन आत्मनेपदत्वम् उच्यते. लकारस्य इत्युक्ते प्रत्ययानाम् आत्मनेपदत्वं. लकाराः अपि प्रत्ययाः एव. प्रत्ययानाम् आत्मनेपदत्वम् एकेन सूत्रेण, अपि च धातोः आत्मनेपदत्वं भिन्नसूत्रेण उच्यते. किन्तु द्वयोर्मध्ये सम्बन्धः अत्र कल्पनीयः. तदर्थमेव अत्र अनुवृत्तिसहितसूत्रे लस्य अवसरः अस्ति. धातोः परं लस्य इति सूत्रेण लकारस्य स्थाने तिबादयः विधीयन्ते. अत्र तु तिबादयः इत्युक्ते नव आत्मनेपदिसंज्ञकप्रत्ययाः एव विधीयन्ते. किमर्थं चेत् धातुः आत्मनेपदी धातुः. धातुः अनुदात्तेत् अथवा नित् चेत् तस्मात् परं प्रत्ययः अपि आत्मनेपदिसंज्ञकप्रत्ययः एव विहितः भवति. प्रत्ययानाम् आत्मनेपदत्वं तङ्गानाम् आत्मनेपदम् इति सूत्रेण उच्यते. अग्रे सरेम
भगिनि, टीकाकाराः सूचयन्ति तत् लस्य इति पदं, तत् वाक्यम् अहं न अवगतवान्. टीकाकाराः सूचयन्ति तत् लस्य इति पदम् आयाति आक्षेपेण यतोहि.
टीकाकारः किं वदन्ति? लस्य इति पदम् अत्र आक्षेपेण आयाति यतोहि तस्य अर्थः आत्मनेपदम् इत्यस्मिन् निहितः. इत्युक्ते अत्र लस्य इति पदस्य अवसरः अस्ति. रूपं साधयितुमिच्छामश्चेत् लट् लकारे लट् इति वदामः खलु, लट् इत्यत्र केवलं ला एव अवशिष्यते. तस्य लकारस्य स्थाने तिबादयः विधीयन्ते, तिप् आदयः आयान्ति. अष्टादश तिङ् प्रत्ययेषु परस्मैपदिप्रत्ययाः आयान्ति वा नो चेत् आत्मनेपदीसंज्ञकप्रत्ययाः आयान्ति वा इति प्रश्ने सति अत्र केवलम् आत्मनेपदीसंज्ञकप्रत्ययाः एव विधीयन्ते. किमर्थं चेत् धातुः आत्मनेपदी, तदर्थं तस्मात् परम् आत्मनेपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति. पूर्वमपि उक्तवती तङ्गानाम् आत्मनेपदम् इति सूत्रेण आत्मनेपदत्वं प्रत्ययानां कृते उक्तमस्ति. लस्य इति पदस्य अवसरः अत्र अस्ति. लकारस्य स्थाने एव तिबादयः विधीयन्ते इति अत्र वार्ता. अनुदात्तनित् धातोः परं लकारस्य स्थाने आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. इत्युक्ते धातुः आत्मनेपदी धातुः, तदर्थं प्रत्ययाः अपि आत्मनेपदसंज्ञकाः एव भवन्तु. लकारस्य स्थाने एव प्रत्ययाः आयान्ति इति मम अवगमनम्. अग्रे सरेम सुजाता भगिनी, भवती पठतु अग्रे किं लिखितम्.
अनुदात्तेत् नाम अनुदात्तः इति यस्य सः धातुः अनुदात्तेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः. अनुदात्त इत्युक्ते किम् इति दत्तमस्ति. अनुदात्तः इत्यस्य सः धातुः अनुदात्तेत् अस्ति. धातुभ्यः आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते. अनुदात्तेत् धातुभ्यः आत्मनेपदसंज्ञकः प्रत्ययाः विधीयन्ते इति अर्थमस्ति.
सरलमेव खलु? अत्र विग्रहवाक्यं दत्तमस्ति अनुदात्तेत्. अनुदात्तेत् इति धातोः विशेषणं, तदर्थमेव आवरणे धातुः इति लिखितं. धातुः कीदृशः? धातुः अनुदात्तेत्. अनुदात्तेत् इति पदस्य विग्रहवाक्यम् अनुदात्तः इत् यस्य सः. अत्र बहुव्रीहिसमासः अस्ति. धातुः अनुदात्तेत् चेत् किं भवति?
आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते.
उत्तमं. दलद्वयमस्ति खलु? दलद्वयम् इत्युक्ते अनुदात्तेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः. अनुदात्तेभ्यः धातुभ्यः इति अवगन्तुम् आस्ते इति रूपं वयं दृष्टवन्तः. धातुः अनुदात्तेत् धातुः, आस् धातुः, तत्र सकारोत्तरवर्ती, अकारः अनुदात्तः, तदर्थमेव सः धातुः अनुदात्तेत्. अनुदात्तेत् धातुः अस्ति इति कृत्वा आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते, तदर्थमेव तस्य रूपम् आस्ते. किन्तु ते इति रूपं कथमायाति इति अन्या वार्ता. तत्र एकम् अन्यत् सूत्रमस्ति. प्रथमपुरुषे एकवचन आत्मनेपदसंज्ञकप्रत्ययः ता अस्ति. ता आतां झ इति प्रथमपुरुषप्रत्ययाः, ता इति प्रत्ययः एव तत्र विधीयते. अपि च निद्भ्यः धातुभ्यः, निद्भ्यः धातुभ्यः इति अवगन्तुम् अत्र शीङ् धातोः उदाहरणं दत्तमस्ति. शीङ् धातोः उदाहरणम् अधोभागे दत्तमस्ति. शीङ् धातौ ण्यकारः इति संज्ञकः. शृणुमः खलु, बालः शेते, अदादिगणीयधातुः. उपदेशावस्थायां धातोः रूपं कथमस्ति? शीङ्. तत्र ण्यकारः इति संज्ञकः अस्ति उपदेशावस्थायां. सः धातुः नित् धातुः, ण्यकारः इति संज्ञकः शीङ् धातौ. तादृशनिद्भ्यः धातुभ्यः अपि आत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते. अग्रे अपि पठतु.
यदा उपर्युक्ते यदा धातोः अनुनासिकः अकारः अनुदात्तः अतः यदा धातुः अनुदात्ते तस्ति अतः आत्मनेति एधते इति लटि न तु एधति कपां धातुः अपि ईदृशः अनुदात्तेत् अतः आत्मनेपदे कम्पते इति लटि कम्पते इति लटि यथा धातुः अस्ति दकारोत्तरवर्ति अकारः इच्छनीया भवति अधः रेखा अस्ति इत्यनेन अनुदात्तेत् अनुदात्तेत् अस्ति अनित् अस्ति इत्यनेन आत्मनेपदे आत्मनेपदे धातुः विधीयते एधते भवति लट् लकारे एधते भवति न तु एधति ते आत्मनेपदे धातु संज्ञक विधीयते चनेन एधते भवति कपाङ् धातुः अकार पकारोत्तरवर्ति अकारः
भगिनि अत्र किञ्चित् मुद्रणदोषः अस्ति अस्य धातोः मूलरूपं कप्यों इदित् धातुः कप्यों इति इदित् धातुः लौकिकधातोः रूपं कम्प् अस्ति भवती वदतु कप्यों इति धातोः रूपं स्वीकृत्य लौकिकधातोः रूपं साधयतु
अपकारोत्तरवर्ति अकारः इत्संज्ञा भवति
पकारोत्तरवर्ति इकारः
इकारः इत्संज्ञा भवति इदितो नुम् धातु इत्यनेन नुमागमः भवति तत्पश्चात् न च पदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनुस्वारः स्थाने एहि परसवर्णः इत्यनेन मकारः आजाति
उत्तमम् अत्र धातुः इदित् इदित् धातुः कप्यो अस्ति कम्प् इति लौकिकधातुः अस्ति इतोपि धातोः रूपं वर्णयितुम् अत्र पकारोत्तरवर्ति यः इकारः अस्ति सः इकारः अनुदात्तः अपि इत्युक्ते धातौ अनुदात्तस्वरः अधः चिह्नम् अस्ति इति कारणतः सः इकारः न केवलम् अनुनासिकः अनुदात्तः अपि अनुदात्त अनुनासिक इकारस्य लोपः भवति अतः धातुः अनुदात्तेत् अनुदात्तेत् धातुः चेत् आत्मनेपदिसंज्ञकप्रत्ययाः विधीयन्ते अनुदात्तनित आत्मनेपदं सूत्रेण विधीयन्ते खलु धातुः भुवादिगणे अस्ति रूपं साधयतु
भुवादिगणे कम्प् इति धातुः अस्ति योगः शप् योगः ते भवति आत्मनेपदे इत्यनेन अकारशकारयोः इत्संज्ञा भवति तस्य लोपः भवति आ एव अवशिष्यते कम्प् योगः आयोगः ते वर्णमेलनमेन कम्पते भवति
उत्तमं साधु भगिनि इदानीं सुन्दरमहोदय भवान् पठतु अग्रिमपरिच्छेदं
धातुः अनुदात्तेत् अस्ति चेत् आत्मनेपदी धातुः ङित् अस्ति चेदपि तथैव आत्मनेपदी शीङ् स्वप्ने इति धातुः ङित् अतः सोऽपि आत्मनेपदी श्येते इति लटि ङीङ् डीङ् विहाय सा वायौ गतौ इति धातुः ङित् अतः आत्मनेपदी डयते इति रूपम् तर्हि अनुदात्तस्य स्वरस्य अनुदात्तस्य स्वरस्य इत्संज्ञाकारणेन अथवा नकारस्य इत्संज्ञाकारणेन धातुः आत्मनेपदी भवति अत्र धातुः यदि अनुदात्त इत् धातुः अस्ति चेत् अनुदात्ते अस्ति चेत् आत्मनेपदी भवति धातुः यदि ङित् अस्ति चेत् तथापि आत्मनेपदी एव भवति यथा शीङ् स्वप्ने इति धातुः ङित् अस्ति तत्र नकारस्य इत्संज्ञा भवति इति कारणेन तद् धातुः शीङ् धातुः ङित् अस्ति अतः सः अपि आत्मनेपदी एव भवति शेते इति लट् रूपम् डीङ् इति डीङ् विहाय सा वायौ गतौ इति धातुः अपि ङित् अस्ति किमर्थं तत्रापि ङकारस्य इत्संज्ञा भवति इति कारणेन तदपि डीङ् इति धातुः अपि ङित् धातुः अस्ति अतः तदपि आत्मनेपदी अस्ति डयते इति लटि रूपं तर्हि अनुदात्तस्य स्वरस्य इत्संज्ञाकारणेन अथवा ङकारस्य इत्संज्ञाकारणेन द्वयोपि कारणेन आत्मनेपदी भवति इति सूचितम् अत्र.
उत्तमं. शीङ् धातोः प्रसङ्गे ञकारः इति संज्ञकः अतः नित् अस्ति धातुः अतः आत्मनेपदसंज्ञकप्रत्ययान् एव गृह्णाति अनुदात्तनित आत्मनेपदं सूत्रेण धातुः नित् अस्ति अतः आत्मनेपदसंज्ञकः प्रत्ययान् स्वीकरोति. शी धातुः ईगन्तधातुः अस्ति. शीङ् धातुः अदादिगणे अस्ति. अदादिगणे अस्ति इति कारणतः शपः लुक् भवति किन्तु तत्र गुणकार्यं भवति. शीङ् धातुः ईगन्तधातुः सामान्यकार्यं नास्ति. विशिष्टसूत्रेण तत्र गुणकार्यं भवति. शीङ्गः सार्वधातुके गुणः इति सूत्रेण गुणकार्यं भूत्वा शी इति लौकिकधातुः खलु तत्र शीङ्गः सार्वधातुके गुणः सूत्रेण गुणकार्यं भूत्वा शे भवति. मध्ये विकरणप्रत्ययः नास्ति. धातुः नित् अस्ति अतः आत्मनेपदी प्रत्ययः विधीयते. तदर्थं शेते इति लटीरूपम् अस्ति. द्वितीयधातुः डिङ् विहाय सा गतौ. वयं जानीमः खलु डयते इति रूपं पक्षी डयते. डयते इति रूपं साधयतु महोदय. भुवादिगणे अस्ति.
डयते भुवादिगणे. ओके. डिङ् डिङ् डयते इति कथं साधनीयं? नकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण नकारस्य इत्संज्ञा भवति. इत्संज्ञा भवति तत् इगन्तधातुः इति कारणेन भ्वादिगणीयधातुः इगन्तधातुः इति कारणेन तस्य गुणकार्यं भवति एव. डि योगे शप् योगे तिप् इति भवति.
तिप् इति वदामः वा नो चेत् ता इति वदामः वा?
आत्मनेपदी इति कारणेन त इति वदति. डि योगे शप् योगे त इति भवति. अत्र तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुक आर्धधातुकयोः इति सूत्रेण तत्र गुणकार्यं भवति एव. तत्र डि गुणः भूत्वा डे भवति. डे योगे शप् योगे त शप् शकारस्य लोपः लशक्वतदिते इति सूत्रेण शकारस्य लोपः भवति. हलन्त्यम् इति सूत्रेण पकारस्य अपि इत्संज्ञा भूत्वा लोपः भवति. अ एव अवशिष्यते. डि गुणकार्यं भूत्वा डे भवति. एवं डै भवति सन्धिकार्येण डे डै भवति. अत्र डै योगे अ योगे त इति वर्णमेलनेन डै अ ते डयते इति रूपं सिद्ध्यति.
उत्तमम्. अत्र डि इति धातुः ईगन्तधातुः. ईकारः अस्ति. ञकारः उपदेशावस्थायाम् अस्ति. हलन्त्यम् इत्यनेन ञकारः अपगच्छति. डि लौकिकधातुः. पश्चात् शप् अस्ति. शप् इत्यस्मात् आयाति. सार्वधातुकार्धधातुकयोः इत्यनेन ईकारस्य गुणः भूत्वा ए भवति. डे योगः आ तत्र एचोयवायावः सन्धिसूत्रेण सन्धिकार्यं भूत्वा एकारस्य स्थाने ऐ आयाति. डै योगः आयोगः ता अस्ति. ता इत्यत्र तेत आत्मनेपदानां टेरे इति एकम् अन्यत् सूत्रम् आवश्यकं. तेन तत्र डयते इति रूपं सिद्ध्यति. अयं डीङ् धातुः गणद्वये अस्ति. भुवादिगणे अस्ति चेत् तस्य रूपं डयते. दिवादिगणे अपि अस्ति. दिवादिगणे अस्ति चेत् रूपं कथं भवति?
दिवादिगणे तस्य रूपं किम् अस्ति? दिवादिगणे विकरणप्रत्ययः ष्यन् विकरणप्रत्ययः ष्यन् अस्ति. डीङ् डीङ् योगे ष्यन् डीङ् धातुः हलन्त्यम् इति सूत्रेण डै भवति. तत्र ष्यन् दिवादिगणे ष्यन् इति रूपं ष्यन् इति विकरणप्रत्ययस्य नकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. श्य एव अवशिष्यते. या शकारस्य अपि लोपः भवति. लशक्वत् इति इत्संज्ञा भूत्वा लोपः भवति. य एव अवशिष्यते. एवं डीयते इति रूपं वा?
उत्तमं. डीयते. साधु महोदय, तदेव श्रोतुमिच्छामि. अत्र धातुः नित् अस्ति. नित् अस्ति इति कारणतः आत्मनेपदी. भुवादिगणे तस्य रूपं डयते. दिवादिगणे अस्य धातोः रूपं डीयते. अर्थः तु समानः एव. द्वयोः गणयोः अस्य धातोः अर्थः समानः, किन्तु रूपं भिन्नं. डयते इति भुवादिगणे, डीयते इति दिवादिगणे भवति. दिवादिगणे गुणकार्यं न भवति. शन् प्रत्ययः अपित् अस्ति. अपित् अस्ति इति कारणतः गुणकार्यम् अभूत्वा या इति विकरणप्रत्ययात् आगतः डीयते इति रूपम् अस्ति. आहत्य सारांशः कः? अनुदात्तेति स्वराणां प्रसङ्गे उक्तमस्ति. नित्तिति व्यञ्जनानां प्रसङ्गे उक्तमस्ति. अत्र दलद्वयमस्ति. अनुदात्तेत् धातुः चेत्, नित् धातुः चेत् तादृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययानां विधानं भवति इति अनेन सूत्रेण उच्यते. आगामिनि सप्ताहे उभयपदीनां प्रसङ्गे अपि च परस्मैपदीनां प्रसङ्गे सूत्राणि कानि इति अवगन्तुं प्रयत्नं करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.